नवगौरवरं नवपुष्पसरं नवभावधरं नवलास्यपरम् नवहास्यकरं नवहेमवरं प्रणमामि सचिसुतगौरवरम् नवप्रेमयुतं नवनीतशुचं नववेशकृतं नवप्रेमरसम् नवधाविलसत् शुभप्रेममायां प्रणमामि शचीसुतगौरवरम् हरिभक्तिपरं हरिनामधरं करजाप्यकरं हरिनामपरम् नयने सततं प्रणयाश्रुधरं प्रणमामि शचीसुतगौरवरम् सततं जनता भवतापहारं परमार्थपरायणलोकगतिम् नवलेहकरं जगतापहारं प्रणमामि शचीसुतगौरवरम् निजभक्तिकरं प्रियचारुतरं नटनर्तननागर राजकुलकामिनी मानस लास्यकरं प्रणमामि चतुसुत गौरवरम् करतालवलं कलकण्ठरावं मृदुवाद्यसुवीनिकया मधुरम् निजभक्तिगुणावृत नाट्यकारं प्रणमामि शचीसुतगौरवरम् युगधर्मयुतं पुनर्नन्दसुतं धरणीषु चित्रं भवभावोचितम् तनु ध्यानचितं निजवासयुतं प्रणमामि शचीसुत गौरवराम अरुणं नयनं चरणं वसनं वदने स्खलितं स्वकनामधरम् अरुणं नयनं चरणं वसनं वदने स्खलितं स्वकनामधरम् कुरुते सुरसां जगत जीवनं प्रणमामि शचीसुत गौरवराम नव गौरवराम नव पुष्पशराम नवभावधरं नवलास्यपरम् नवहास्यकरं नव हेमवरं प्रणमामि च जेसुत गौरवराम प्रणमामि शचीसुत गौरवरं 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 जय गौरनिताय 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 जय गौरनिताय जय कलियुग पावन गौरनिताय कलियुग पावन गौरनिताय जय जय प्रभुपाद 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 जय प्रभुपाद नित्य गौर हरि बोल हरि बोल हरि बोल
His complexion is the hue of fresh cream,